ॐ येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेषभावः। तस्मिन् विषये वयम् एकां कथां पठितवन्तः, अपि तदनन्तरं तत्र किञ्चित् अभ्यासमपि कृतवन्तः। किन्तु आरम्भे तत्र एतत् चिन्तयामः, तत्र इदानीं पाठः कुत्र आरप्स्यते इत्युक्ते, तत्र त्रिचत्वारिंशत्तमे पुटे ततः आरम्भं करणीयम् अस्ति इति मन्ये। किन्तु तस्मात् प्राक् किञ्चित् चिन्तनं कुर्मः। तत्र विशेषणविशेष्यस्य तयोः सम्बन्धस्य प्राक् तस्मात् प्राक् तत्र क्रियापदस्य तत्र भेदः, क्रियापदस्य भेदः कुत्र कुत्र भवति, तत्र क्रियापदस्य वचनभेदः अस्ति वा, क्रियापदस्य नाम यदि वचनं तत्र बालकः गच्छति, इदानीं तत्र वचनपरिवर्तनं कुर्मः चेत् तत्र क्रियापदस्य रूपस्य तत्र परिवर्तनं भवति वा, बालकः गच्छति, इदानीं तत्र द्विवचने किं भवति,
बालकौ गच्छतः।
अतः तत्र वचनभेदेन क्रियापदं विद्यते खलु। अपि तत्र यदि तत्र पुरुषभेदेन क्रियापदस्य पुरुषभेदेन क्रियापदं न विद्यते वा,
पुरुषभेदेन स्त्रीलिङ्गपुल्लिङ्गे
तत्र बालकः गच्छति, बालकः गच्छति इति प्रथमपुरुषः, त्वं गच्छसि इति मध्यमपुरुषः, अतः तत्र भेदः अस्ति। अपि
लिङ्गे
अहं गच्छामि, अतः तत्र पुरुषभेदः अपि अस्ति तत्र। तत्र वचनभेदः अस्ति, पुरुषभेदः अस्ति, लिङ्गभेदः अस्ति वा, लिङ्गभेदः नास्ति। अस्तु, क्रियापदे तत्र क्रियापदं तत्र लिङ्गभेदेन क्रियापदं न भिद्यते, किन्तु वचनभेदेन भिद्यते, अपि पुरुषभेदेन भिद्यते। इदानीं तत्र विशेषणस्य कथम् अस्ति, तस्य परिस्थितिः कीदृशी, तत्र उन्नतः बालकः इति तदस्ति, तत्र उन्नतः बालकः, तत्र इदानीं वचनस्य परिवर्तनं कुर्मश्चेत् तत्र किं भवति, द्विवचने किम् अस्ति, उन्नतः बालकः, विशेषणस्य अपि तत्र भेदः अस्ति, यदि वचनभेदं कुर्मः तत्र विशेषणं भिद्यते, नाम तत्र परिवर्तनं भवति। अपि बहुवचने उन्नताः बालकाः। इदानीं तत्र लिङ्गभेदः अस्ति वा, उन्नतः इति विशेषणस्य लिङ्गभेदः अस्ति वा,
अस्ति महोदय।
तत्र उन्नतः बालकः इति स्थाने तत्र बालिका अस्ति चेत्
उन्नता
बालिका इति भवति, समीचीनम्। अपि उन्नता बालिका अपि द्विवचने, उन्नते बालिके अपि बहुवचने, उन्नताः बालिकाः इति भवति, समीचीनम्। इदानीं तत्र पुरुषभेदः अस्ति वा विशेषणस्य, तत्र सः उन्नतः बालकः अस्ति, इदानीं मध्यमपुरुषे किं भवति, त्वम् उन्नतः बालकः
असि
असि इति, अत्र तत्र भेदः नास्ति। इदानीम् उत्तमपुरुषे अहम्
उन्नता बालिका अस्मि
अथवा उन्नतः बालकः इति, तत्र भेदः न भवति। अत्र विशेषणस्य पुरुषभेदः नास्ति, लिङ्गभेदः अस्ति, वचनभेदः अस्ति, अपि विशेषणस्य तत्र विभक्तिभेदः अपि अस्ति इति तत्र क्रियापदस्य तत्र स्वरूपं भिन्नम्, अपि तत्र विशेषणस्य स्वरूपं भिन्नम् अस्ति एतावदेव. अस्तु, इदानीम् अग्रे सरामः. तत्र वयं तत्र अवधेयम् एतत् सर्वं पठितवन्तः पूर्वमेव. तत्र तत्र विशेषणस्य विशेष्यस्य सम्बन्धः भवति इति तत् सर्वं ज्ञातवन्तः पूर्वमेव. इदानीम् अग्रे सरामः. तत्र त्रिचत्वारिंशत्तमे पुटे तत्र अभ्यासं किञ्चित् कृतवन्तः वा इति मन्ये, किन्तु आरम्भतया कुर्मः. अतः तत्र
महोदय एकः प्रश्नः, महोदय
वदतु भगिनि.
योधा अस्ति न महोदय, तत्र तृतीयबिन्दु.
अस्तु अस्तु अस्तु, तद् तस्मिन् विषये वदामः भगिनि. अस्तु, भवती एव अस्तु, तत्र अन्य कोऽपि, तत्र ललिता भगिनि आरम्भं करोतु, किन्तु तस्मिन् विषये वदामि भगिनि.
कुत्र कुत्र अस्ति? अस्तु,
इदानीं त्रिचत्वारिंशत् तमे.
अस्तु 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 महोदय.
पञ्चमाभ्यासः
पञ्चम ओके,
त्रिचत्वारिंशत् 43
समाप्तं न? एक द्वे त्रि पञ्च
कृतवन्तः,
अक्षयं तूणीरम् अस्ति, तत् तूणीरात् ऐ थिङ्क् इट् वि फिनिश् देट् नो.
ओ अस्तु अस्तु, अतः
इति अहं मन्ये.
अस्तु अस्तु अस्तु, धन्यवादः भगिनि. अतः तत्र अस्तु तर्हि, तत्र
महत् सञ्जनम् अस्ति दट् करणीयम्.
ओ धन्यवादः भगिनि. अस्तु, अतः तत्र तृतीयवाक्यस्य विषये, तृतीयस्य वाक्यस्य विषये तत्र योधाः इति अस्ति खलु, तत्र अहमपि पृष्टवान्, तत्र मुद्रणदोषः इति एव अस्ति, प्रायशः एकवचने एव योधः इति, तत्र सकारान्तपदं किमपि नास्ति, तत् साधारण योधः इति अकारान्तपदमेव. अतः योधः तैः तैः इषवैः प्रतियोत्स्यते. योधः तैः तैः इत्युक्ते इषवैः क्षम्यताम् तैः इषुभिः प्रतियोत्स्यते इति एव अस्ति.
शान्ताः, शान्तः अपि समाप्तम् अपि समाप्तम्,
तदपि समाप्तं वा? अस्तु भगिनि.
शान्ति शान्ति आत्मनि तस्मिन् चैतन्यं प्रकाशते.
अतः इदानीं तत्र महत् स्यन्दनम् इति वा
इति मन्ये?
अस्तु भगिनि, ततः एव आरम्भं करोतु तर्हि. अस्तु,
महत् महत् स्यन्दनम् अस्ति, तेन गच्छति. महता स्यन्दनेन तेन गच्छति.
महत् स्यन्दनम् अस्ति, तेन तेन इदानीं तत्र महता
महता स्यन्दनेन तेन गच्छति.
समीचीनं भगिनि. अस्तु समीचीनम्. अस्तु अग्रिममपि करोतु.
अद्वेष्टा भक्तः अस्ति, ईश्वरः तम् इच्छति. अद्वेष्टं भक्तं द्वितीया विभक्ति अस्ति. अद्वेष्टं भक्तम् ईश्वरः इच्छति.
समीचीनं, भक्तः समीचीनं, भक्तः भक्तं भवति, किन्तु अद्वेष्ट प्रातिपदिकं किम्? अद्वेष्टा इति अस्ति प्रथमविभक्तिरूपं खलु, तद् अद्वेष्टा भक्तः इत्युक्ते प्रथमविभक्ति खलु, भक्तः इति ऋकारान्तपदम् अस्ति.
अद्वेष्टारं भक्तम् ईश्वरः
कर्तारं पितरं प्रायशः भिन्नम् अस्ति भगिनि.
पुल्लिङ्गशब्दः अस्ति द्वेष्ट
पितृ, न पितरं पुल्लिङ्गशब्दः, किन्तु तत्र पितरम् इति तत्र ह्रस्वाकारः, न कर्ता कर्तारम् अद्वेष्टारम्. तत्र पितारम् इति नास्ति खलु, तत्र पितरम् इति एव.
अद्वेष्टारं भक्तम् ईश्वरः इच्छति.
ईश्वरः तम् अद्वेष्टारं भक्तम् इच्छति. समीचीनं भगिनि. अस्तु अग्रे शुभदः भगिनि.
ओके आं महोदय, एकनिमिष. अस्तु, दिव्यं चक्षुः अस्ति,
पार्थः तेन विश्वरूपं दृष्टवान् दिव्यं चक्षु इत्यस्य दिव्यं चक्षुः इत्यस्य तृतीया विभक्तिः करणीयम् अतः पार्थः दिव्येन चक्षुणा विश्वरूपं
दिव्यम् इति अकारान्तपदं समीचीनं दिव्येन इति एकवचने अस्ति किन्तु चक्षुः इति प्रातिपदिकं किं चक्षुष् अस्ति चेत् तत्र तृतीया किं भवति तत्र वयं जानीमः खलु भगिनि तत्र भवत् शब्दस्य तृतीया भवता चतुर्थी भवते इति तत्र पाठन् अस्ति खलु अतः तत्र चक्षुष् चक्षुषा
पार्थः दिव्येन चक्षुषा विश्वरूपं दृष्टवान्
समीचीनं भगिनि अस्तु अग्रिमं
महती निशा अस्ति तस्यां संयमी जागर्ति महती निशा तस्याम् इत्युक्ते सप्तमी एकवचने महती महत्यां निशायां संयमी जागर्ति
समीचीनं समीचीनं भगिनि अस्तु अग्रे गीताञ्जलि भगिनि
निष्ठा नारी अस्ति तस्याः नाम
पाञ्चाली
तस्याः
श्रेष्ठायाः
एकनिमिष भगिनि
श्रेष्ठायाः नार्याः तस्याः नाम पाञ्चाली
तस्याः श्रेष्ठायाः नार्याः नाम पाञ्चाली समीचीनम् अग्रिमम्
पतिव्रताः स्त्रियः सन्ति तासु श्रीः भवति अस्तु पतिव्रताः स्त्रियः तासु सप्तमी बहुवचन
पतिव्रताः इति तत्र प्रातिपदिकं किम् अस्ति
पतिव्रता आकारान्त वा पतिव्रतासु पतिव्रतासु स्त्रियसु वा
तत्र स्त्रियः स्त्री इति नदी शब्दवत् इति तादृश नास्ति इति मन्ये तत्र नद्यः इति
स्त्रीषु एव
स्त्रीषु नदीषु इति
स्त्रीषु
दीर्घस्त्री वा
दीर्घ 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 एव दीर्घ एव
दीर्घ दीर्घ
ह्रस्व अस्ति चेत्
न न ह्रस्व नास्ति भगिनि
मुद्रणदोषः
स्त्रियः इति एव अस्ति भगिनि
स्त्रीषु इति भवति इति मन्ये महोदय दीर्घ स्त्रीषु
इति चिन्तयामि भगिनि
अस्तु पतिव्रतासु स्त्रीषु श्रीः भवति
तत्र तासु पतिव्रतासु स्त्रीषु श्रीः भवति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे प्रिया भगिनी अग्रे वदति वा मधु महोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः तत्र वयं पेज् 44 मध्ये स्मः
महोदय अहं शृणोमि अद्य
अस्तु 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 किन्तु यदि तत्र कुत्र स्मः इति ज्ञातुम् इच्छति तत्र पुटसङ्ख्या अस्ति तत्र
धन्यवादः
अस्तु नमस्कारः प्रिया भगिनी अग्रे
आम् महोदय. धीमान् योगी अस्ति तस्मिन् कुशलता भवति. अत्र तस्मिन् इति अस्ति, ततः पुल्लिङ्गः सप्तमी विभक्तिपदी पदमस्ति. धीमान् धीमत् इति पदं, धीमति इति सप्तमी विभक्ति,
धीमति.
योगी इति पदं गुणिवत् अस्ति, सप्तमी विभक्ति योगिनी. योगिनी कुशलता भवति.
समीचीनं भगिनि. तस्मिन् धीमति योगिनी कुशलता भवति. समीचीनं भगिनि. अग्रे
अग्रे. सेवा तत्पराः शिष्याः सन्ति, तेभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति. तेभ्यः इति बहुवचन पञ्चमी वा चतुर्थी वा अस्ति.
तत्र यच्छन्ति इति अस्ति,
चतुर्थी एव.
समीचीनं. रूपं दृष्ट्वा पञ्चमी वा चतुर्थी वा न ज्ञातुं शक्नुमः, किन्तु अत्र यच्छति यच्छन्ति इति दृष्ट्वा चतुर्थी इति.
सेवा तत्पराः इति, सेवा तत्परः इति अहं चिन्तयामि, अकारान्तः. सेवा तत्परेभ्यः इति अस्ति, शिष्याः शिष्येभ्यः. ततः तेभ्यः सेवा तत्परेभ्यः शिष्येभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति.
बहु समीचीनमस्ति भगिनि. अस्तु, समीचीनं. तत्र तत्त्वदर्शिनः इति तत्र वचनं किं,
प्रथमविभक्ति एकवचनं वा? न, क्षम्यतां महोदय, नकारान्तशब्दमस्ति, ततः बहुवचनं, प्रथमाविभक्ति बहुवचनरूपम्.
तत्र तत्त्वदर्शिनः यच्छन्ति, एकवचने किं भवति? तत्त्वदर्शिनः यच्छन्ति,
तत्त्वदर्शिन् आत्मा इति
योगी कृतवती, तत्र तत्त्वदर्शी
यच्छति.
समीचीनं भगिनि. धन्यवादः. अस्तु, अग्रे शोभा भगिनि.
आं महोदय, अग्रे. शुश्रूषुः अर्जुनः, तस्मै कृष्णः ज्ञानं दत्तवान्. तत्र गुरुः शब्दवत् भवति इति मन्ये. शुश्रूषुः इत्युक्ते यस्य श्रोतुम् इच्छा अथवा विवक्षा अस्ति. शुश्रूषुः तस्मै इति चतुर्थी विभक्तौ. शुश्रूषवे अर्जुनाय कृष्णः ज्ञानं दत्तवान्.
तस्मै शुश्रूषवे अर्जुनाय कृष्णः ज्ञानं दत्तवान्.
समीचीनम्. आसुरी योनिः अस्ति, तस्यां मूढाः जन्म प्राप्नुवन्ति. आसुरु इति तत्र योनिः स्त्रीलिङ्गे, आसुरी इति नदीवत्, योनिः इति मतिवत् मतिः. तत्र तस्याम् इति सप्तमविभक्ति. तस्याम् आसुर्यां योन्याम् इति भवति वा महोदय?
मतिः
योन्याम्. तस्याम् आसुर्यां योन्यां मूढाः जन्म प्राप्नुवन्ति.
मूढाः जन्म प्राप्नुवन्ति. समीचीनं भगिनि. तत्र जन्म इति विभक्ति का तत्र?
मूढाः जन्म तत्र द्वितीया एव, जन्म जन्मनि जन्मानि.
कर्मपदं. जन्म प्राप्नुवन्ति.
तत्र रूपपरिवर्तनं न भवति द्वितीयविभक्तौ.
नपुंसकलिङ्गपदं
नपुंसकलिङ्गे अस्ति इति कृत्वा, यथा कर्म कर्मणि
कर्माणि. समीचीनं. समीचीनं, धन्यवादः. अस्तु, अग्रे वंशिष्यतः भगिनि.
आं महोदय, श्रूयते किल?
श्रूयते भगिनि.
अस्तु, षोडशः अस्ति. सूर्यवंशप्रभवः इक्ष्वाकुः अस्ति, तस्मै मनुः योगम् अब्रवीत्. अस्तु, सूर्यवंशः प्रभवः इक्ष्वाकुः अस्ति, तस्मै इति चतुर्थी विभक्ति भवति. सूर्यवंशप्रभवः अकारान्तपुल्लिङ्गः शब्दः अस्ति, रामशब्दवत् अस्ति. तत्र चतुर्थी भवति, रामाय रामाय सूर्यवंशाय प्रभवाय इक्ष्वाकुः, इक्ष्वाकुः गुरुशब्दः अस्ति, हा तत् गुरवे भवति, सूर्यवंशप्रभवाय इक्ष्वाकवे, इक्ष्वाकवे तस्मै मनुः योगम् अब्रवीत्.
हा समीचीनम्. अथवा किञ्चित् परिवर्त्य तत्र तस्मै
सूर्यवंशप्रभवाय इक्ष्वाकवे मनुः योगम् अब्रवीत्.
समीचीनं भगिनि. हा अग्रिम
सात्विकं तपः अस्ति तस्मिन् नितरः भव. सात्विकं तपः अस्ति तस्मिन् नितरः भव. अस्तु, सात्विकं
निरतः भगिनि,
सात्विकं तपः अस्ति तस्मिन् निरतः
भवतः
तस्मिन् इति सप्तमी विभक्तौ अस्ति महोदय. सात्विकम् अतः सात्विकः इति भवति, तत्र सात्विकः इति पुल्लिङ्गशब्दः अस्ति. तात्विकं तपः अस्ति.
किन्तु किन्तु भगिनि भगिनि, तत्र अस्ति इति अस्ति, प्रथमवाक्ये अस्ति इति अस्ति खलु, क्रियापदम् अस्ति, अतः तत्र कर्मपदं किमपि नास्ति खलु तस्मिन् वाक्ये.
तदेव तत्र, ओ अस्तु अस्तु, तत्र नपुंसकलिङ्ग वा?
यतोहि सात्विकम्, अतः तपः इति कीदृशपदम्?
तपस्थिति अस्ति न
महोदयपुंसकलिङ्गपदं. समीचीनम्.
ओ अस्तु अस्तु, सत्यं सत्यं, किञ्चित् अस्तु अस्तु. तर्हि तस्मिन् इत्युक्ते सात्विके, सात्विके तपस् इति तपस् सकारान्तपदम् अस्ति, तत्र तु तपसि.
सात्विके
सकारान्त, सात्विके तपसि तस्मिन् निरतः भव.
तस्मिन् सात्विके तपसि निरतः भव. समीचीनं समीचीनं भगिनि. अस्तु अग्रे तत्र अस्तु मधुसूदन महोदय अस्ति. उषा भगिनी अग्रे.
आं महोदय, अहङ्कारिणी व्यक्तिः अस्ति, तस्यां शान्तिः न भवति. अहङ्कारिणी स्त्रीलिङ्ग अस्ति महोदय.
अहङ्कारिणी इति, अहङ्कारी इति पुल्लिङ्गे, अहङ्कारी नकारान्तपदं भवति, किन्तु अत्र साधारण नदी शब्दवत् अहङ्कारिणी व्यक्तिः इति स्त्रीलिङ्ग, व्यक्तिः नित्यस्त्रीलिङ्गपदम्.
तस्यां स्त्रीलिङ्ग सप्तमी विभक्ति अस्ति. अहङ्कारिण्यां व्यक्तायां भवति न महोदय,
व्यक्तिः मतिशब्दवत् भगिनि, व्यक्तिः मतिशब्दवत्,
स्त्रीलिङ्ग व्यक्त्या, व्यक्त्यां भवति न
महोदय, व्यक्त्याम् इति वक्तुं शक्नुमः.
शान्तिः न भवति.
तस्याम् अहङ्कारिण्यां व्यक्त्यां
शान्तिः न,
शान्तिः न भवति. समीचीनं भगिनि. अग्रिमं,
विशुद्धा बुद्धिः अस्ति, तया आत्मनियन्त्रणं करणीयम्. विशुद्धा बुद्धिः स्त्रीलिङ्गं, तया स्त्रीलिङ्गम् आत्मनियन्त्रणं करणीयं. विशुद्धया तृतीयविभक्त्याम् अस्ति, विशुद्धया बुद्ध्या आत्मनियन्त्रणं करणीयम्.
तया विशुद्धया बुद्ध्या आत्मनियन्त्रणं करणीयम्. अत्र कर्तृपदम् अस्ति वा?
न महोदय, अस्ति इति अकर्मक अस्ति
प्रथमवाक्ये, किन्तु द्वितीयवाक्ये
तया अस्ति महोदय, करणीयम् अस्ति, अतः आत्मनियन्त्रणं कर्मपदमस्ति.
तत्र कर्मणि रूपम् अस्ति. समीचीनं भगिनि. तत्र अस्माभिः आत्मनियन्त्रणं करणीयम्. अस्तु, एकम् एव वाक्यमस्ति, तदपि करोतु भगिनि.
सः उन्नतः वृक्षः, तस्मात् फलं पतति. सः उन्नतः वृक्षः, तस्मात् पञ्चमी विभक्ति अस्ति, अतः उन्नतात् वृक्षात् फलं पतति.
पुनः एकवारम्,
उन्नतात् वृक्षात् फलं पतति.
तस्मात् उन्नतात् वृक्षात् फलं पतति हा तत्र एषः शब्दः तत्र उन्नतः इति एतावत् एतावान् प्रसिद्धः तत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र यदि उन्नतः इति न वदामः तत्र न कोऽपि लाभः अतः तत्र यत्र यत्र विशेषणस्य तत्र चर्चा भवति तत्र उन्नतः इति पदं भवेत् नो चेत् तत्र शान्तिः मनसि न भवेत्
विशेषणविशेषस्य पूर्णं
तत्र प्रोटोटैप् इति तत्र उन्नतः इति
तस्मात् अपि प्रयोगं करणीयं वा महोदय केवलम् उन्नतात् वृक्षात् फलं पतति अपि सम्यक् अस्ति वा
सत्यं तदपि कर्तुं शक्नुमः वक्तुं शक्नुमः किन्तु तत्र वयं तत्र यदि वाक्यद्वयं तत्र योजयित्वा वदामः तत्र किं भवति तस्मात् इति पदं तस्मात् इति पदस्य अन्वयः कुत्र अस्ति इति दृष्ट्वा खलु तस्मात् इत्युक्ते कस्मात् उन्नतात् वृक्षात् खलु अतः तत्र तस्मात् उन्नतात् वृक्षात् फलं पतति इति तत्र पूर्णवाक्यं भवति नो चेत् तत्र किं भवति तत्र तस्मात् फलं पतति अथवा उन्नतात् वृक्षात् फलं पतति इति किन्तु तत्र द्वयोः वाक्ययोः मेलनं कृत्वा यदि वक्तुम् इच्छामः तत्र तस्मात् उन्नतात् वृक्षात् फलं पतति इति अस्तु समीचीनम् अस्तु तर्हि अग्रे गच्छामः इदानीं तत्र वेदा भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा
महोदय विशेषस्य विभक्त्यानुगुणं विशेषणस्य अपि विभक्तिं वचनं च परिवर्त्य लिखत विशेषस्य विभक्त्यनुगुणं विशेषस्य अपि विभक्तिं वचनं च ओके अर्जुनः दिव्य शङ्खं दमति सो अर्जुनः दिव्यं शङ्खं दमति उदाहरणं अग्रे दुष्ट अर्जुनः दुष्टयोधान् मारयति योधान्
तत्र लिङ्गमपि वचनम् उक्त्वा रूपं वदतु
योधान् योद्धशब्दस्य योद्धृशब्दस्य वा योद्रान्
तत्र योधः इति साधारण अकारान्त पदम् इति
योधः वा
योधः इति मन्ये
ओके सो योधान् द्वितीय बहुवचनं योधान सो दुष्टः दुष्टान् अर्जुनः दुष्टान् योधान् मारयति
समीचीनम्
अग्रिमम् अर्जुनः ज्येष्ठ अग्रजात् आशीर्वादं प्राप्नोति अग्रजात् पञ्चमी विभक्ति अग्रजात् अस्ति पञ्चमी एकवचनं अग्रजः अग्रजात् ज्येष्ठ ज्येष्ठस्य ज्येष्ठः पुल्लिङ्गमस्ति वा ज्येष्ठात् न किं
वदामि विशेषणम् अस्ति खलु ज्येष्ठ इति विशेषणं भवेत् खलु अतः तत्र अग्रजः इति अस्ति चेत् विशेषणं किं भवति
ज्येष्ठशब्द प्रातिपदिकं ज्येष्ठप्रातिपदिकं वा
प्रातिपदिकं ज्येष्ठ इति एव अस्ति अतः पुत्ररूपं किं
ज्येष्ठः ज्येष्ठ राम
ज्येष्ठात्
अग्रजात् आशीर्वादं प्राप्नोति
समीचीनं भगिनि तावदेव समीचीनं
अर्जुनः
तावदेव समीचीनम् अर्जुनः ज्येष्ठात् अग्रजात् आशीर्वादं प्राप्नोति समीचीनं भगिनि अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय अर्जुनः नानिन् भीष्माय जलं ददाति भीष्माय तु चतुर्थी अस्ति नानिन् गुणिवत् अस्ति इति मन्ये गुणिन् इति महोदय न गुणिन् गुणिन् अस्ति चेत् चतुर्थी गुणी एकनिमिषं महोदय
पुस्तकं न द्रष्टव्यं भगिनि
न अहं मनसि सम्भाषणं करोमि
भगिनि किन्तु वयम् एतत् बहुवारं कृतवन्तः खलु भगिनि तत्र भवत् शब्दस्य एकवचने
भवत्तु भवते भवति
अतः तत्र किं भवति हलन्तपदानाम् एकवचनरूपं कीदृशं भवति तत्र भवते तत्र भवता भवते भवतः भवतः भवति इति तादृशगुणिन् शब्दस्य वदतु तत्र गुणिन् शब्दस्य तृतीय आरभ्य सप्तमीपर्यन्तम् एकवचने रूपाणि कानि
सप्तमी
भवति इति अस्ति अतः गुणि
गुणिनि
गुणिनि तावदेव हा अतः
अस्तु महोदय अस्तु ज्ञानिने
हा समीचीनं ज्ञानिने हा
ज्ञानिने अस्तु धन्यवादः महोदय अस्तु अर्थः चक्रिन् कृष्णं नमति कृष्णं द्विवचनमस्ति द्वितीयविभक्ति अस्ति चक्रिन् कृष्णं नमति
चक्रिन् इति अस्ति चेत् तत्र किं भवति तत्र गुणिन्वत् अस्ति चेत् तत्र यस्मिन् गुणम् अस्ति अथवा गुणः अस्ति सः गुणि अथवा तत्र यस्य अथवा यस्मिन् वा तत्र यस्य अथवा यस्मिन् वा चक्रः अत्र चक्रम् अस्ति सः चक्री चक्रिण् इति प्रातिपदिकं गुणि इति द्वितीयविभक्तौ एकवचने किं भवति न न गुणि तत्र गुणी गुणिनौ गुणिनः
गुणिनं
हा
गुणिनम् अस्तु गुणिनम् अस्ति चक्रिणम्
हा चक्रिणम् इति प्रायः चक्रिणं णत्वं भवति इति मन्ये चक्रिणं
कृष्णं नमति
हा अर्जुनः चक्रिणं कृष्णं नमति समीचीनं भगिनि अस्तु अग्रे वंशी सुधा भगिनि हा चिन्ता मास्तु भगिनि हा
आं महोदय तत्र अर्जुनः स्वकीय पुत्रं स्मरति तत्र पुत्रम् इति द्वितीया विभक्ति एकवचनमस्ति पुल्लिङ्गशब्दः अस्ति अतः स्वकीयं पुत्रं स्मरति अग्रे अर्जुनः तीक्ष्णशरेण हन्ति तत्र शरेण इति तृतीयविभक्त पुल्लिङ्गशब्दः तृतीयविभक्शरः इति भवति अहं चिन्तयामि अकारान्तपुल्लिङ्गः तृतीयविभक्ति एकवचनमस्ति अतः तीक्ष्ण अपि तीक्ष्णेन शरेण हन्ति तत्र नत्वं न भवति यतोहि नकारः बाधकवर्णः अस्ति तीक्ष्णेन
इति समीचीनं भगिनि हा धन्यवादः अस्तु अग्रे ललिता भगिनि
निपुण कृष्णे विश्वसिति कृष्णे सप्तमी विभक्ति अस्ति निपुणे कृष्णे विश्वसिति
हा समीचीनं तत्र यत्र विश्वासः भवति तत्र जानीमः यत्र विश्वासः अस्ति तत्र सप्तमी अस्ति
कुशलता
निपुणता तत्र सर्वत्र सप्तमी समीचीनं भगिनि हा अस्तु अग्रे
धर्म्य कर्म आचरति अर्जुनः धर्म्यकर्म आचरति धर्म अत्र द्वितीया विभक्ति अस्ति कर्म कर्मपदमस्ति कर्म सो धर्म्य समानमेव धर्म्यकर्म आचरति
समीचीनं धन्यवादः अग्रे शोभनी
महोदय तत्र कर्म इति कर्मन् अस्ति
वा कर्मन् नकरन्तपदं
कर्मन् कर्मणि कर्माणि
कर्माणि नपुंसकलिङ्गपदम्
अस्तु महोदय
तत्र प्रायशः धर्म्य इति प्रायशः तत्र नकारान्तपदं वा अथवा
तत्र महोदय धर्म्य इत्युक्ते वित् धर्म इति किल
किन्तु विशेषणम् अस्ति चेत् तत्र नपुंसकलिङ्गपदमेव भवति खलु भगिनि धर्म्यम् इति साधारण वनं शब्दवत् अस्ति
कर्मं क्षमतां कर्मं न कर्म इति तत्र द्वितीय
तत्र धर्म्यं प्रायशः भवेत्
धर्म्य इत्युक्ते तत्र धर्म्य वित्त धर्म इति न भवति वा धर्म्य कर्म आचरति तु तत्र द्वितीया कर्मपदं भवति किन्तु धर्मम् इति जानामि धर्म्या इति किमपि अन्यत् रूपं भवति इति भाति
तत्र रूपं तत्र अर्थः सम्यक्तया न जानामि भगिनि किन्तु तत्र प्रायशः नपुंसकलिङ्गपदमेव भवति अतः तत्र प्रायशः तत्र वनं शब्दवत् भवेत्
धर्म्यम् इति भवति महोदय धर्म्या इति
नपुंसकलिङ्गमस्ति
धर्म्यम् इति प्रायशः अतः तत्र
किं
भगिनि
पुल्लिङ्गशब्दः अपि अस्ति
विशेषणम् अस्ति खलु भगिनि विशेषणं तत्र यद् मध्ये अस्ति ते तु तत्र विशेषणम् इति अस्ति चेत् तत्र त्रिषु लिङ्गेषु भवति खलु
सत्यं तर्हि धर्म्या इति
धर्म्यः इति प्रायशः पुल्लिङ्गे किन्तु नपुंसकलिङ्गे धर्म्यम् अस्ति चेत् वनं शब्दवत् अतः वनं वने वनानि अस्ति चेत् तत्र प्रायशः धर्म्यं कर्म आचरति इति प्रायशः भवेत्
धर्मः इति अस्ति
धर्मः भिन्नं भगिनि एतत् धर्म्यम् इति
किन्तु अहम् अवगन्तुम् इच्छामि तत्र धर्म्या इति कीदृशः धर्म्यः वा
धर्म्या इति प्रातिपदिकम् अस्ति भगिनि तत्र धर्म्या इति रूपमस्ति धर्म्यम्
धर्मे निष्ठः अथवा धर्मे निष्ठः अथवा धर्मयुक्तः इति अर्थे अथवा अन्यत् पदं भगिनि प्रायशः धर्म्य इति पदस्य समानार्थकपदम् अस्ति धार्मिकम् इति
किन्तु कर्म तु प्लेन् अस्ति तत्र महोदय
किं प्लेन् तत् किं तादृश कर्म आचरति इति
पुस्तकस्य बेक् उत्तराणि दत्तं न दत्तानि तत्र धर्म्यं लिखितं
किन्तु भगिनी भवती तु जानाति तत्र यानि उत्तराणि दत्तानि तेषु मुद्रणदोषः अपि भवेयुः खलु
अहं न दृष्टवती अत एव अद्य एव दृष्टवती
सत्यं सत्यम्
अहं चाट् मध्ये लिङ्क् प्रेषितवती महोदय तत्र धर्म्यम् इति रूपाणि भवन्ति
धर्म्यम् अस्तु धन्यवादः
अस्तु धन्यवादः
हा धर्म्यम्
अस्तु
धर्म्यम् इति अस्ति तत्र धार्मिक इति अर्थे भवति इति मन्ये भगिनि हा
इति भाति महोदय
धार्मिकं कर्म
तत्र धर्मेण इति अर्थे भवति इति भाति अस्तु
न धर्मयुक्तः इति
धर्मयुक्तः
धर्मस्य भावः धर्म्यः
धन्यवादः
यत् प्रत्ययः भवति तत्र धर्म्या इति भवति भगिनि
धन्यवादः
भगिनि अग्रे
अस्तु आत्मीय अपि च बन्धुभ्यः भीतः बन्धुभ्यः इति तत्र बन्धुभ्यः भीतः अस्तु पञ्चमी अस्ति तत्र
भीतिः
पञ्चमी अस्ति अर्जुनः आत्मीयेभ्यः बन्धुभ्यः भीतः
समीचीनं
महत् इति अपि च स्यन्दने तिष्ठति स्यन्दने इति सप्तमी विभक्ति तत्र महत् इति सप्तमी विभक्ति महती इति भवति अर्जुनः महति स्यन्दने तिष्ठति
हा इति तावदेव समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र शुभदा भगिनी भवती उक्तवती वा अस्मिन्
न महोदय
अस्तु अस्तु हा इदानीं करोतु भगिनि
विपरीतनिमित्तानि पश्यति अर्जुनः विपरीतानि निमित्तानि पश्यति अव्यवस्थित सोरि अवस्थितबन्धून् समीक्षते तत्र अर्जुनः अवस्थितान् बन्धून् समीक्षते
हा अवस्थितान् बन्धून् ये तत्र सन्ति तत्र विद्यमानाः तत्र बान्धवः अथवा सन्ति तान् सः पश्यति समीक्षते अस्तु समीचीनं भगिनि अस्तु धन्यवादः अग्रे प्रिया भगिनि
आम् महोदय अर्जुनः दिव्यचक्षुषा पश्यति तृतीया विभक्ति अस्ति ततः अर्जुनः दिव्येन चक्षुषा पश्यति
समीचीनम् अग्रे
अर्जुनः देववर कृष्णस्य प्रकृतिं न जानाति षष्ठी विभक्ति ततः अर्जुनः देववरस्य कृष्णस्य प्रकृतिं न जानाति
हा समीचीनं तत्र जानाति इति क्रियापदस्य कर्मपदं किम् अस्मिन् वाक्ये
प्रकृतिं
प्रकृतिं समीचीनं हा अग्रे
अग्रे अर्जुनः प्रसन्न भगवतः अनुग्रहं प्राप्नोत् अहं चिन्तयामि अत्र षष्ठी
भगवतः समीचीनं भगवतः भगवान् इति प्रथमाविध विभक्ति किन्तु भगवत् इति प्रातिपदिकं भगवतः इति षष्ठी
अर्जुनः प्रसन्नस्य भगवतः अनुग्रहं प्राप्नोत्
प्राप्नोत् प्राप्नोत् इति तत्र लट् लकारे किम् अस्ति
प्राप्नोति
प्राप्नोति हा तत्र प्रा उपसर्गः योगः आप्नोत् समीचीनं भगिनि धन्यवादः अस्तु तत्र तद् अग्रे सरामः तर्हि इदानीं तत्र वंशीसुधा भगिनी अग्रिम अभ्यासः तत्र आरम्भं करोति वा
आं महोदय तत्र करोमि महोदय सप्तमं किल उचितं विशेषण विशेषभावसहितं शब्दद्वयं योजयत अस्तु उचितं विशेष अस्तु परं चेतसा किं ओ अस्तु परमा न
चेतसा भगिनी तत्र प्रायशः तत्र योजनीयम् इति अस्ति तत्र
विशेषभावसहितं शब्दद्वयं योजयत अस्तु द्वयोः मेलनं करणीयम् इति भाति महोदय
तत्र चेतसा इति तत्र
चेतसा इति तृतीया विभक्ति किल चेतसा परमेण चेतसा वा तत्र
चेतस् इति नपुंसकलिङ्गपदं समीचीनं
परं ब्रह्म अस्ति
किम् अस्ति
मेच् द फालोइङ्ग् इति अस्तु 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 सत्यं सत्यम् अस्तु अस्तु धन्यवादः उषा भगिनी धन्यवादः
तदेव मम अस्तु महोदय तर्हि
अस्तु परम् इति ब्रह्म इति भवति समीचीनम् अस्तु धन्यवादः उषा भगिनी
ब्रह्म इति भवति
अस्तु अतः तत्र सर्वे मिलित्वा एव वदामः तदनन्तरं विशेषतः भगिनी अग्रिमम् अभ्यासम् आरम्भं करोतु इदानीं मिलित्वा कुर्मः अतः तत्र परम् इति ब्रह्म इदानीं महती किं भवति तत्र
सप्तमी विभक्तौ अस्ति अतः महती स्यन्दने इति भवति
अस्तु समीचीनं
अवगच्छामि महोदय
अग्रे तत्र भजताम् इति
षष्ठी
भजतां भक्तानां
भक्तानाम् इति षष्ठी विभक्तौ
समीचीनम् अस्तु नान्यघामिना
नान्यगामिना इति तृतीया न तत्र तृतीया विभक्ति एकवचनमस्ति नान्यगामिना नान्यगामिना इति नारायणेन भवति वा न जाने चेतसा अपि भवितुम् अर्हति नान्यगामिना चेतसा अपि भवितुम्
अर्हति चेतसा प्रायश अस्ति यतोहि तत्र भगवता नारायणेन इति प्रायश
सत्यं 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 महोदय भगवता नारायणेन भवति हृष्टरोमा हृष्टरोमा किमस्ति हृष्टरोमा धनञ्जयः वा
हृष्टरोमा धनञ्जयः समीचीनं
किरीटिनं किरीटिनम् इति द्वितीया विभक्ति भवति
चक्रिणं
सत्यं चक्रिणं भवति तान्त्री भवति
तान्त्री तावदेव अस्तु समीचीनम् अस्तु
अस्तु
महोदय अस्तु अतः तत्र नान्यगामिना चेतसा इति एव भवति तत्र
सत्यं महोदय
अस्तु समीचीनम् अस्तु इदानीम् अग्रिमम् आरम्भं करोतु भगिनि
हा मञ्जूषायाम् उचितानि विशेषणपदानि चित्वा रिक्तस्थानं पूरयत अस्तु प्रथममस्ति ईश्वरः सर्वभूतानि मायया भ्रामयति ईश्वरः यन्त्रारूढाः यन्त्रारूढानि यन्त्ररूढैः अत्र तु सर्वभूतानि इति अस्ति तत्र तु भ्रामयति इति क्रियापदमस्ति तस्य कर्मपदमस्ति सर्वभूतानि इत्यस्य विशेषणं भवितुमर्हति यन्त्ररूढानि यतोहि नपुंसकलिङ्गमेव अस्ति तत्र अतः यन्त्ररूढानि इति एव सम्यक् पदमस्ति
समीचीनं भगिनि अग्रिमं
त्वं शिष्येन व्यूढां सेनां पश्य तत्र पश्य इति क्रियापदमस्ति तत्र क्रियापदस्य कर्मपदमस्ति सेनां व्यूढां सेनां पश्य व्यूढां सेनाम् इति विशेषणविशेषभावः अस्ति
शिष्येन
हा तत्र शिष्येन इति तृतीया विभक्ति अस्ति विभक्त्याम् अस्ति अतः धीमते धीमान् धीमता तस्य विशेषणमस्ति तृतीया विभक्तौ एव भवितव्यम् अतः धीमता इति तत्र सम्यक् पदम् अस्ति महोदय
समीचीनं भगिनि धन्यवादः
अस्तु महोदय
धन्यवादः भगिनि अस्तु अग्रे शोभा भगिनि अग्रे
हयैः युक्ते स्यन्दने माधवः तिष्ठति हयैः इति तृतीया विभक्ति बहुवचने तत्र श्वेताः श्वेते श्वेतैः इति तृतीया बहुवचने अस्ति श्वेतैः हयैः युक्ते स्यन्दने माधवः तिष्ठति
हा श्वेतैः हयैः युक्ते स्यन्दने माधवः तिष्ठति समीचीनं
महोदय तत्र कर्मपदं नास्ति वा
कुत्र
अतैव श्वेतैः हयैः युक्ते स्यन्दने माधव तिष्ठति अकर्मकः
तिष्ठति तिष्ठति तु अकर्मकः
सत्यं
अग्रे
इन्द्रियाणि मनः हरन्ति तत्र इन्द्रियाणि इति मनः द्वे अपि द्वितीयविभक्तौ हरन्ति प्रमाथि प्रमाथिनि प्रमाथीनि इति अस्तु तत्र इन्द्रियाणि इति बहुवचने अतः प्रमाथीनि इति मन्ये प्रमाथीनि
कर्माणि किन्तु अत्र
तत्र प्रमाथि इति नास्ति तत्तु एकवचने प्रमाथिनि गुणी गुणिनि तदपि नास्ति तत्र प्रमाथिन् इति किम् अस्ति महोदय प्रातिपदिकम् प्रमाथि इत्यस्य
नकारान्तपदमेव अस्ति
नकारान्त अस्ति चेत् प्रमाथी इति भवति किल प्रमाथि इति
प्रथमविभक्ति किन्तु इदानीं नपुंसकलिङ्गे अस्ति
नपुंसकलिङ्गे अस्तु
इन्द्रियम् अतः तत्र
प्रमाथीनि इति मन्ये
प्रमाथीनि इति
प्रमाथीनि इन्द्रियाणि मनः हरन्ति
किन्तु भवती तत्र आरम्भे तत्र भवती उक्तवती तत्र विभक्तिविषये किम् उक्तवती
इन्द्रियाणि इति
विभक्ति का तत्र
तत्र हरन्ति इति अस्ति अतः इन्द्रियाणि अपि मनः द्वितीयविभक्ति इति उक्तवती महोदय
इन्द्रियाणि अपि मनः द्वयमपि द्वितीयविभक्तौ वा
न इन्द्रियाणि प्रथमा मनः इन्द्रियाणि मनः हरन्ति
मम मनसि के क्लेशः आसीत् तत्र द्वयमपि वा अथवा केवलं
द्वयमपि उक्तवती किन्तु तत्र दोषः
अस्तु अस्तु तत्र मनः इति कर्मपदं
मनः कर्मपदं प्रमाथीनि इन्द्रियाणि मनः हरन्ति
तत्र अस्तु समीचीनं भगिनि इदानीं अस्तु धन्यवादः अस्तु अग्रे भगिनि
आं महोदय विद्वान् अज्ञानम् अज्ञां बुद्धिभेदं न जनयेत्
ज्ञान
कर्मसंज्ञिना कर्मसंज्ञिनां कर्मसंज्ञिनः कर्मसंज्ञिनोः विद्वान् अज्ञां बुद्धिभेदं न जनेत्
तत्र अज्ञानाम् इति अस्ति भगिनि
अज्ञानां बुद्धिभेदं न जनेत् क्षम्यताम्
इदानीं तत्र कस्य पदस्य विशेषणम् आवश्यकम्
कर्मसंज्ञिनां
किमर्थं किमर्थम्
अज्ञानां
विभक्तिका तत्र
षष्टि बहुवचनं
समीचीनम् अज्ञानां बुद्धिभेदं न जनयेत्
न जनयेत्
विद्वान् कर्मसंज्ञिनाम् अज्ञानां बुद्धिभेदं
न जनयेत्
जनयेत् समीचीनं भगिनि अस्तु
अहं योगं विवस्वते प्रोक्तवान् अहं योगं विवस्वते प्रोक्तवान् अहम् इमम् इयम् इमे इमम् अहम् इमं योगं विवस्वते प्रोक्तवान्
तत्र इयम् अपि इमे इदानीं न जानीमः किन्तु अग्रिमे पाठे भवति तत्र इयम् इमौ इमे सर्वम् अयम् इमौ इमे एतत् सर्वं
स्त्रीलिङ्गे अस्ति अयं पुंलिङ्गे अस्ति
सत्यं भगिनि इमं नपुंसकलिङ्गे समीचीनं भगिनि
योगिनः इन्द्रियैः अपि
इति पुल्लिङ्गशब्दम् अस्ति न महोदय अयम् इत्यस्य योगम् इति द्वितीयविभक्तौ अस्ति अतः इमम् इति पुल्लिङ्गद्वितीयविभक्ति
एकवचनद्वितीयविभक्ति तत्र सत्यं योगः
योगः इति पुल्लिङ्गशब्दः न महोदय
सत्यं 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 अतः इमम् इति एव उक्तम्
इदम् इदम् इति नपुंसकलिङ्गम् अस्ति महोदय परन्तु
किन्तु इदम् अत्र नास्ति खलु अत्र तु इमम् इयम् इमे इति एव
नपुंसकलिङ्गे अस्ति तत् इदम् इति
सत्यं सत्यं भगिनि सत्यं 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 भगिनि धन्यवादः तत्र इमम् इति तु तत्र पुल्लिङ्गे एव सत्यं भगिनि
धन्यवादः इन्द्रियैः अपि कर्म कुर्वन्ति केवलेन तृतीया केवलाभ्यां केवलैः तृतीया अस्ति योगिनः केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति
अस्तु भगिनि धन्यवादः समीचीनम् अस्तु अग्रे तत्र
पञ्चमवाक्ये पञ्चमं वाक्ये अज्ञानम् इति शब्दस्य प्रातिपदिकं किं महोदय
अज्ञः अज्ञः भगिनि ज्ञानं नास्ति अज्ञः इत्युक्ते यः यस्य अज्ञानम् अस्ति सः अज्ञः स न जानाति इति
चिन्तितवती तत्र अज्ञानी अस्ति वा
समीचीनप्रश्नं भगिनि किन्तु तत्र अज्ञः इति एव पदमस्ति अकारान्तपदं देवशब्दवत्
अज्ञः अस्तु अस्तु
अज्ञः यः न जानाति सः अज्ञः इति
अज्ञानी अस्ति चेत् अज्ञानिनां भवति
अज्ञानिनां तदेव अहं चिन्तितवती अत्र कोऽपि मुद्रणदोषः अस्ति वा
समीचीनप्रश्नः भगिनि किन्तु तत्र अज्ञानाम् इति एव तत्र अज्ञः इति अस्ति अज्ञः इति समीचीनं भगिनि अस्तु अग्रे तत्र दलितभगिनी कृतवती वा अत्र न खलु अस्तु ललिताभगिनी अग्रे करोति वा
अहं योगिनः नो नाट् दट्
ऋषयः
ब्रह्मनिर्वाणं लभन्ते क्षीणकल्मषः प्रथमा विभक्ति अस्ति अत्र प्रथमा बहुवचने सो क्षीणकल्मषः कल्मषाः क्षीणकल्मषाः ऋषयः ब्रह्मनिर्वाणं लभन्ते
क्षीणकल्मषाः ऋषयः ब्रह्मनिर्वाणं लभन्ते समीचीनम्
बहुवचने
तत्र यस्य कल्मषः तत्र क्षीणकल्मषः इत्युक्ते यस्य कल्मषः तत्र क्षीणं भवन् अस्ति
क्षीणाः कल्मषाः यस्य सः
तत्र कल्मषः अस्ति किन्तु क्षणे क्षणे तस्य क्षयं भवति क्षीणं क्षीणं भवति न्यूना न्यूना भवति सः समासः सः क्षीणकल्मषः बहुव्रीहिसमासः
क्षीणाः कल्मषाः यस्य सः वा महोदय
एकवचने तत्र क्षीणकल्मषः यस्य सः इति यस्य कल्मषः क्षीणं तत्र क्षीणं प्रतिक्षणं क्षीणं भवन् भवति भवति तादृशः सः क्षीणकल्मषः इदानीं सः तादृशः ऋषिः यः अस्ति अतः क्षीणकल्मषः ऋषिः सः ब्रह्मनिर्वाणं लभते अथवा इत्र अत्र बहुवचने
अतः क्षीणकल्मषः यस्य सः ताः इति भवति किल महोदय
यस्य सः
ते भवति पुल्लिङ्गशब्दः
अथवा येषां 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 ते येषां ते अस्तु धन्यवादः भगिनि अस्तु अग्रे लता भगिनि अग्रिमं
योगी शुचि देशे आसनं प्रतिष्ठाय योगं युज्यात्
युज्यात्
योगी देशे इति सप्तमी विभक्ति अस्ति आसनं शुचि देशे आसनं प्रतिष्ठाय योगं युज्यात् शुचौ सप्तमी विभक्ति अस्ति
तत्र शुचिः इति पदं शुचिः इति पदस्य तत्र शुचिः इति पुल्लिङ्गपदं हरिशब्दवत् अथवा खलु कविशब्दवत्
शुचौ भवति वा
शुचौ
शुचौ देशे योगी शुचौ देशे आसनं प्रतिष्ठाय योगं युज्ञात्
युञ्ज्यात् युञ्ज्यात् इति अस्तु समीचीनम् अस्तु अन्तिममपि करोतु भगिनि तत्र
मनः मनः बलवान् बलवत् बलवतः सो मनः नपुंसकलिङ्गं सो बलवत् अस्ति
समीचीनं मनः बलवत् अस्ति समीचीनं भगिनि अस्तु अस्तु इदानीं तदपि एतम् अभ्यासमपि कृतवन्तः इदानीम् अग्रे सरामः तत्र प्रिया भगिनी अग्रिमम् आरम्भं करोति वा भगिनि
कोष्टकस्थानि विशेषणपदानि क्रमशः उपयुज्य विशेषपदानां लिङ्गवचनविभक्त्यनुगुणं वाक्यानि पूरयत
विभक्त्यानुगुणम् इति
अस्तु आवरणे दुर्बल अपि च महत् इति अस्ति अहं प्रथमवाक्यं पठामि दुर्बल अपि जनाः सम्भूय महत् कार्यं साधयितुं शक्नुवन्ति जनाः दुर्बलाः अहं चिन्तयामि दुर्बलाः अपि जनाः पुल्लिङ्ग बहुवचनरूपं प्रथमविभक्ति सम्भूय कार्यं महत् कार्यं साधयितुं शक्नुवन्ति
समीचीनं भगिनि दुर्बलाः अपि जनाः सम्भूय महत् कार्यं साधयितुं शक्नुवन्ति समीचीनं भगिनि समीचीनम् अग्रिमं
परीक्षायां श्रद्धावत् छात्राः उत्तीर्णाः भवन्ति श्रद्धावत् श्रद्धावान् श्रद्धावन्तः
परीक्षा समीचीनं श्रद्धावन्तः बहुवचने समीचीनं
परीक्षायां श्रद्धावन्तः छात्राः उत्तीर्णाः भवन्ति अलसाः इति वा महोदय
अलसाः
अनुत्तीर्णाः भवन्ति
अलसाः अनुत्तीर्णाः भवन्ति समीचीनं भगिनि तत्र परीक्षायां श्रद्धावन्तः छात्राः उत्तीर्णाः भवन्ति अलसाः अनुत्तीर्णाः भवन्ति समीचीनं भगिनि अस्तु अग्रे
महोदय तत्र महत् कार्यम् इति द्वितीया विभक्तौ अस्ति किल तत्र महत् कार्यम् इति नपुंसकलिङ्गमेव अस्ति न महोदय
नपुंसकलिङ्गः इति मन्ये भगिनि
अतः महत् कार्यमिति द्वितीया विभक्ति एकवचनमेव भवति किल तत्र
सत्यं सत्यं किन्तु कार्यं
शक्नुवन्ति इत्यस्य कर्मपदं भवति किल सम्यक् समीचीनं वा
तत्र किं कर्तुं शक्नुवन्ति साधयितुं शक्नुवन्ति तत्र प्रायशः कर्मपदम् इति एव इति मन्ये भगिनि तत्र एकनिमिष तत्र
जनाः अस्ति न
जनाः सम्भूय तत्र अन्वयः भवति किल जनाः सम्भूय तत्र अन्वयः भवति
न न सम्भूय इत्युक्ते तत्र मिलित्वा इति तथावदेव जनाः मिलित्वा तत्र दुर्बलाः जनाः अपि तत्र मिलित्वा किं तत्र महत् कार्यं कर्तुं शक्नुवन्ति इति
मम तु शक्नुवन्ति इत्यस्य कर्मपदं किम् अस्ति इति मम आशयः महोदय
अतः तत्र तुमुन् अस्ति चेत् तत्र तत् साक्षात् कर्मपदं न भवति किन्तु तत्र साधयितुम् अतः तत्र साधयन्ति इति पदस्य तत् क्रियायाः कर्मपदं भवति तत्र कार्यं महत् कार्यम् इति
सत्यं तदेव साधयितुं शक्नुवन्ति अस्तु
तत्र शक्नुवन्ति इति तत्र तुमुन् तस्मात् प्राक् तुमुन् अस्ति एतत् कर्तुं शक्नोति इति तत्र अतः तत्र शक्नुवन्ति साक्षात् तत्र अकर्मक क्रियापदम् अस्ति
शक्नुवन्ति अकर्मकः भवति वा महोदय न
जानामि यतोहि तत्र प्रयोगः पश्यतु तत्र प्रयोगं पश्यति चेत् तत्र कर्तुं शक्नोति
सत्यं परन्तु शक्यते धातु अकर्मकः धातु न जानामि तत्र
इति मन्ये भगिनि
न जानामि
यतोहि तत्र प्रयोगं तत्र प्रयोगं यदि पश्यामः तत्र पश्यामः तत्र कर्मयुक्तप्रयोगं कर्तुं शक्नुमः वा शक्नुमः वा
महत् इति शब्दः एकवचने अपि अस्ति द्वितीयभक्तौ
अस्मिन् वाक्ये तु तत्र किम् अस्ति तत्र साधयितुम् इति अस्ति अतः तत्र क्रियाद्वयम् अस्ति खलु भगिनि अतः तत्र साधयितुम् इति क्रियायाः कर्मपदम् अस्ति तत्र महत् कार्यम् इति
सत्यम् अस्तु
अकर्मक इति दत्तमस्ति
यतोहि तत्र प्रयोगे अपि तत्र सर्वदा तत्र कर्तुं तुमुन् रूपमेव अस्ति खलु तत्र शक्नोति यत्र शक्नुवन्ति क्रियापदस्य तस्मात् प्राक् अहम् अन्यत् को तत्र अन्यत् किमपि प्रयोगं न जानामि प्रयोगं न जानामि तत्र सर्वदा तुमुनेव अस्ति शक्नोमि शक्नुवन्ति प्राक्
सत्यं स्पष्टं महोदय धन्यवादः
अस्तु भगिनि धन्यवादः मम मनसि अपि तत्र सम्यक्तया स्थापितं नासीत् इदानीं समीचीनम्
किञ्चित् तत्र विशेषप्रयोगः अस्ति अतः किञ्चित् भ्रमः अस्ति
सत्यं भगिनि समीचीनमेव अस्तु इदानीं तत्र अस्तु भवती एव इदानीं वदतु तत्र इदानीं तत्र तृतीय अपि चतुर्थवाक्यः
आं महोदय वदामि भवन्तः मार्गेण गच्छन्तु न तु भवन्तः ऋजुमार्गेण गच्छन्तु मार्गेण ऋजुना ऋजु इति उकारान्तशब्दः अस्ति गुरुशब्दवत् अस्ति अतः भवन्तः ऋजुना मार्गेण गच्छन्तु न तु वक्रेण न वक्रमार्गेण इति भवति वा वक्रमार्गेण इति भवति किल
तत्र वक्रेण मार्गेण
वक्रेण भवति सत्यं तत्र विशेषणं भवति किल वक्रेण मार्गेण अतः भवन्तः ऋजुना मार्गेण गच्छन्तु न तु वक्रेण मार्गेण
समीचीनं भगिनि अग्रे
वृक्षेषु
महोदय तत्र ऋजु नपुंसकलिङ्गं पदमस्ति महोदय
ऋजु इति तत्र ऋजु इति यदि विशेषणमस्ति चेत् तत्र त्रिषु लिङ्गेषु भवितुम् अर्हति भगिनि अतः
मार्गेण मार्गः पुल्लिङ्गशब्दः किल भगिनि
मार्गः पुल्लिङ्गशब्दः
अतः ऋजुः अपि पुल्लिङ्गशब्दः
पुल्लिङ्गरूपं स्वीकर्तुं शक्नुमः
किन्तु पदं अवगतं
विशेषणमस्ति चेत् तत्र त्रिषु लिङ्गेषु भवति इति
तत्र ऋजुना इत्यस्मिन् नकारः
नत्वं न भवति भगिनि जकारः अस्ति खलु
सत्यं ऋजुना इति भवति
ऋजुना इति तदेव भवती उक्तवती अपि
न एकवारम् अहमपि पुनः
समीचीनमेव उक्तवती भगिनि चिन्ता मास्तु
वृक्षेषु कुसुमानि शोभन्ते दृढेषु वृक्षेषु
मृदु
इति तत्र उकारान्त नपुंसकलिङ्गपदं तत्र कोऽपि स्मरति वा?
धेनुवत् किम् अस्ति, स्त्रीलिङ्गशब्दः अस्ति, किमस्ति?
मधुवत्,
दृढेषु वृक्षेषु कुसुमानि इति बहुवचनरूपमस्ति. मृदु क्षम्यतां महोदय, दृढेषु वृक्षेषु मृदूनि कुसुमानि शोभन्ते.
तत्र वस्तूनि अपि समीचीनं भगिनी. अस्तु, धन्यवादः भगिनी. अग्रे तत्र गीताञ्जलि भगिनी अग्रे.
आम् महोदय, भारतं विशालराष्ट्रं, भारतं विशाल राष्ट्रं नपुंसकलिङ्गम् इति मन्ये महोदय.
तत्र शङ्का मास्तु खलु, सन्देहः न भवेत्, यतोहि तत्र क्रियापदं किम् अस्ति अत्र?
अस्ति एव,
अतः कर्मकः.
राष्ट्रं भारतं विशालं राष्ट्रम् इति, नेपालं
लघु,
सो लघु अपि राष्ट्रं वा, लघुं राष्ट्रम्.
हा, तत्र लघु इति लघुं राष्ट्रं, लघुं राष्ट्रं. हा,
लघु एव महोदय, मधु शब्दवत् मधु मधुनि मधुनि राष्ट्रं प्रथम उच्यते चेत् लघु
लघु लघु
किन्तु नपुंसकलिङ्गम् अस्ति चेत् लघुम् अपि भवति न?
नो, राष्ट्रं प्रथमा विभक्तेन राष्ट्रं
सत्यं.
सो लघु लघु मधुवत् नपुंसकलिङ्गे मधु मधु मधुनि मधुनि मधु.
ओ समीचीनं भगिनि, वेद भगिनि धन्यवादः. धन्यवादः भगिनि. वस्तु इव सत्यं सत्यं, वस्तु वस्तूनि वस्तूनि, लघु लघुनि लघूनि. हा, धन्यवादः भगिनि. हा, अतः तत्र लघु राष्ट्रमेव. समीचीनं, धन्यवादः भगिनि. हा, समीचीनमस्ति. अस्तु, अग्रे
मधुवत् अस्ति.
हा, अग्रिमम्.
अस्तु, भवन्तः दुष्टजनेभ्यः दूरे तिष्ठन्तु. अस्तु, जनेभ्यः दूरे तिष्ठन्तु, दुष्टेभ्यः जनेभ्यः दूरे तिष्ठन्तु इति, जनेभ्यः न, ओ अस्तु, साधु साधु इति
न, भवन्तः भवन्तः इदानीं प्रथम रिक्तस्थाने किं
बहुवचनमस्ति, भवन्तः जनेभ्यः इत्युक्ते पञ्चमी इति बहुवचनमस्ति, जनेभ्यः दुष्टेभ्यः जनेभ्यः,
हा भवन्तः
पञ्चमी बहुवचनरूपं, भवन्तः दुष्टेभ्यः जनेभ्यः दूरे तिष्ठन्तु, अपि च भवन्तः साधु इति उकारान्तपदम् इति उकारान्तगुरुवत् अस्ति वा महोदय?
सत्यं भगिनि.
गुरु अस्ति चेत् गुरुभ्यः गुरुभ्यः जनेभ्यः न,
न न गुरुभ्यः न, साधुभ्यः जनेभ्यः,
साधुभ्यः जनेभ्यः न,
क्षम्यता. समीचीनं भगिनि. अस्तु, समीचीनम्. अस्तु, अग्रे शोभा भगिनी अग्रे.
अग्रे हे भगवन् तत्र तादृश इति प्रातिपदिकं शक्तिं यच्छतु इति तत्र शक्तिम् इति तत्र यच्छतु इति दा इति धातु अस्तु दा धातु अस्ति चेत् यच्छतु भवति चेत्
किन्तु किन्तु तत्र शक्तिम् एव अस्ति
शक्तिं कर्मपदम् अस्ति अस्तु नो चेत् दा धातु धातोः कृते चतुर्थी भवति इति
किन्तु अत्र केवलं
अत्र नास्ति हे भगवन् तादृशं शक्तिं यच्छतु येन
शक्ति इति
आम् आम् क्षम्यतां तादृशीं शक्तिं यच्छतु स्त्रीलिङ्गे येन सर्व इति अस्ति तत्र येन अपि कार्यं साधयेयं येन सर्वे अपि कार्यं साधयेयं
हा सर्वमपि कार्यं साधयेयं
ओ सर्वमेव तत्र कार्यं सर्वं कार्यम् अस्तु
हा सर्वम् अपि कार्यं साधयेयं तत्र
कार्यं
हा तत्र प्रायशः तत्र येन इति तत्र येन इति भवितुमर्हति अपि यया अपि तत्र वक्तुं शक्नुमः तत्र यया शक्त्या किन्तु तत्र येन इत्युक्ते यदि भवान् यच्छति तत्र तेन धानेन अहं सर्वं कार्यं साधयितुं
शक्नोमि इति हे भगवन् तादृशीं शक्तिं यच्छतु शक्तिम् इति अस्ति अतः तत्र हा यथा भवान् उक्तवान् यया
यया अपि तत्र स्थापितुं शक्नुमः
येन इति दत्तम् इति
तत्र तत्र शक्ति इति पदस्य अन्वयः तत्र
नास्ति वा
इच्छामः चेत् तत्र यया इति भवति किन्तु यदि भवान् तत्र तादृशं तादृशीं शक्तिं यच्छति इदानीं तत् अभवत् तत् कार्यम् अभवत् भवतः तत् कार्यम् अभवत् तेन कार्येण तद् कृतम् अतः तेन कार्येण अहमपि सर्वं कार्यं साधयेयम् इति अतः तत्र यत् कार्यं भवति तत्र अन्वयः भवति तेन इति पदस्य साक्षात् शक्तिः न किन्तु शक्तेः धानम् अत्र अभवत् इति कृत्वा धानस्य कृते तत्र धानस्य अन्वयः भवति अत्र
अस्तु तेन दानेन दानेन सर्वम् अपि कार्यं साधयेयं
साधयेयम् इति भवति इति मन्ये भगिनि
अग्रिमं तत्र दण्डं कर्तयामि चेत् अपि च दण्डौ सिद्ध्यतः इति अस्ति तत्र दीर्घ इति अस्ति दण्डम् इति अस्ति कर्तयामि चेत् इति दीर्घं दण्डं कर्तयामि चेत् ह्रस्व इति अस्ति दण्डौ ह्रस्वौ दण्डौ सिद्ध्यतः दीर्घं दण्डं कर्तयामि चेत् ह्रस्वौ दण्डौ सिद्ध्यतः
सिद्ध्यतः तावदेव समीचीनम्
उन्नताः तु न सिद्ध्यन्ति
किं भगिनि
उन्नतौ दण्डौ तु न
सिद्ध्यतः इत्युक्ते टाल् इति अस्ति तत्र दीर्घ इत्युक्ते लाङ्ग् इति खलु
लाङ्ग् इति अस्ति
ह्रस्व
एव
दीर्घः ह्रस्वः समीचीनं भगिनि अस्तु अग्रे उषा भगिनि
मृष्टौ कदाचित् अपि च
उन्नतः आगतः तत्र उन्नतः भवेत् यत्र विशेषणविशेषभावः अस्ति तत्र उन्नतः आगच्छति एव
वृष्टौ कदाचित् वृक्षाणां पतनं भवति न भवति उन्नत अपि च वामन दत्तमस्ति वृष्टौ कदाचित् उन्नतानां वृक्षाणां पतनं भवति वामनानां न भवति
इति समीचीनं भगिनि वामनानां न भवति अग्रिमं
बालिकाभिः सह क्रीडतु न तु सह तृतीयभक्त्या विनीत अविनीत अस्तु विनीताभिः बालकाभिः सह क्रीडतु न तु अविनाताभिः
क्षम्यतां
महोदय अविनीताभिः इत्युक्ते किं महोदय
तत्र विनीता इति तस्य विरुद्धार्थकं, विनीता इत्युक्ते तत्र विनयम् इति तादृशं यस् तादृशं गुणम् अस्ति इति तत्र विनीत विनीत इत्युक्ते तत्र बालिका तत्र गुणयु गुणवती इति तत्र हा अस्तु धन्यवादः भगिनि. अस्तु अग्रे शुभदा भगिनि.
स्वातन्त्र्यसङ्ग्रामे बहु स्वातन्त्र्यसङ्ग्रामे बहवः धीराः युवकाः प्राणार्पणं कृतवन्तः.
समीचीनं भगिनि. अस्तु अग्रे
गुरवः छात्रैः सह शास्त्रचर्चां कुर्वन्ति दक्ष धीमत्. दक्षाः गुरवः धीमद्भिः छात्रैः सह शास्त्रचर्चां कुर्वन्ति.
हा समीचीनं भगिनि. अस्तु हा धन्यवादः. बहु समीचीनम् अस्ति. अस्तु अग्रे तत्र ललिता भगिनी कृतवती वा अत्र?
अहं कृतवती इति मन्ये. कुत्र अस्ति दक्षः तत्र
वा? कृतम् इदानीं भयम् इति
भयं भयं महत् परिश्रमं कृत्वा संस्कृतभाषां समग्रविश्वे प्रसारयामः. वयं द्वितीयाविभक्ति परिश्रमं महत् परिश्रमं कृत्वा संस्कृतभाषां विश्वे सप्तमी विभक्ति अस्ति तत्र समग्रे विश्वे प्रसारयामः.
हा समीचीनं भगिनि. हा अस्तु अग्रिम
अग्रिमः सः लताभ्यः नपुंसकलिङ्गे नास्ति वा?
महत्
न परिश्रमं नपुंसकलिङ्ग वा पुल्लिङ्ग?
पुल्लिङ्गे अस्ति भगिनि, पुल्लिङ्गे अस्ति परिश्रमः इति.
तत् किम् आयाति तत्र? महान्तं परिश्रमं कृत्वा संस्कृतभाषां समग्रे विश्वे
एकनिमिष
तत्र महान् इति शब्दः किञ्चित् भिन्नः अस्ति तत्र तत्र प्रायशः महान्तम् अथवा महन्तम् इति सर्वदा मम पेश एव भवति.
महत् एव अस्ति किल महोदय?
महत् एव किन्तु तत्र
नपुंसकलिङ्ग अस्ति चेत् महत् भगिनि, परिश्रमं तत्र पुल्लिङ्गशब्दः अस्ति तदेव.
न न महान् इत्यस्य अपि महत् एव प्रातिपदिकम् अस्ति.
सत्यं सत्यं
महान्तम् इति भवति इति उक्तवती.
महान्तमेव भवान् शब्दवत् महोदय.
भवान् अस्ति चेत् भवन्तम् इति अस्ति, भवान्तम् इति नास्ति.
भवान् भवन्तम् अतः महन्तम् एव भवति न
महन्तम्?
महान् इति शब्दः किञ्चित् महान्तम् एव.
महान्तम् इति महान्तम् इति अस्ति. धन्यवादः भगिनि. भवन्तम् इव नास्ति तत्र, भवान् इति भवन्तं भवति किन्तु महान् इति महान्तम् इति अस्ति.
किं विशेषणमस्ति तत्र महोदय?
न जानामि भगिनि, किन्तु महत् इति भिन्नशब्दः अस्ति तत्र. तकारान्त महत् शब्दः इति एव तत्र तस्य रूपाणि तत्र शब्दमञ्जर्यामपि दत्तानि सन्ति.
अस्तु महोदय.
हा अतः तत्र साधारण सामान्यतकारान्तपदम् इव नास्ति तत्र, मरुत् अथवा तादृशं नास्ति. एतत्तु तत्र हा भवान् शब्दवत् अपि नास्ति तत्र. हा हा अतः तत्र महान् इति एव तत्र भवति. अस्तु तत्र शुभदा भगिनी प्रेषितवती तत्र अष्टाध्यायी मध्ये. धन्यवादः भगिनी. महान्तम् इति एव अस्ति. हा अस्तु तत्र अस्तु तत्र कः तत्र शुभदा भगिनी भवती एव
वेदभगिनी
अस्तु 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 तत्र
वयं महान्तं परिश्रमं कृत्वा संस्कृतभाषां समग्रे विश्वे प्रसारयामः सः सः कोमललताभ्यः
कोमलाभ्यः
मनोहरपुष्पाणि चिनोति सः कोमलाभ्यः
खलु
कोमलाभ्यः लताभ्यः मनोहराणि पुष्पाणि चिनोति
हा समीचीनं हा अस्तु तत्र वंशीसुधभगिनी धन्यवादः वेदभगिनी वंशीसुधभगिनी अत्र उक्तवती वा एतत् अस्मिन् अभ्यासे भवती एव आरम्भं कृतवती अस्तु तत्र कोऽपि न कृतवान् अथवा कृतवती वा अत्र अस्मिन् अभ्यासे
झटिति
अस्तु अस्तु करोतु भगिनि हा
पञ्चादशं वाक्यं महतां जनानां किमपि असाध्यं नास्ति महतामिति षष्ठीविभक्ति बहुवचने
समीचीनम्
अन्तिमं वाक्यं भवत्यः आपणं गत्वा लेखनीः अस्ति द्वितीया बहुवचने अतः नदी नद्यौ नद्यः नदीं नद्यौ नदीः सुन्दरीः समीचीनाः च लेखनीः क्रीणन्तु समीचीनाः
हा तत्र क्लेशः भवति समीचीनं भगिनि धन्यवादः हा समीचीनम् अस्तु तत्र अस्तु अन्ते तत्र अस्तु प्रिया भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओम्